अथ एकादशोऽध्यायः। अर्जुन उवाच, मदनुग्रहाय परमम् गुह्यमध्यात्मसंज्ञितम् यत्त्वयोक्तम् वचस्तेन मोहोऽयम् विगतो मम। भवाप्ययो हि भूतानाम् श्रुतो विस्तरशो मया, तत्त्वः कमलपत्राक्ष महात्मामपि चाव्ययम्। एवमेतत्तथा तत्त्वम् आत्मानम् परमेश्वर, द्रष्टुमिच्छामि ते रूपम् ऐश्वरम् पुरुषोत्तम। मन्यसे यदि तत्शक्यम् मया द्रष्टुमिति प्रभो, योगेश्वर ततो मे त्वम् दर्शयात्मनमव्ययम्। श्रीभगवानुवाच, पश्य मे पार्थरूपाणि शतशोऽथ सहस्रशः, नानाविधानि दिव्याणि नानावर्णाकृतीनि च। पश्यादित्यवसून् रुद्रान् अश्विनो मरुतस्तथा, बहून्यादृष्टपूर्वाणि पश्चाश्चर्याणि भारत। इहैकस्तम् जगत्कृष्णम् पश्याद्य सचराचरम्, मम देहे गुडाकेश यश्चान्य द्रष्टुमिच्छसि, न तु माम् शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा। दिव्यम् ददामि ते चक्षुः, पश्य मे योगमैश्वरम्। सञ्जय उवाच, एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः, दर्शयामास पार्थाय परमम् रूपमैश्वरम्। अनेकवक्त्रनयनम् अनेकाद्भुतदर्शनम् अनेकदिव्याभरणम् दिव्यानेकोधदायुधम् दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम्। सर्वाश्चर्यमयम् देवम् अनन्तम् विश्वतो मुखम्, दिवि सूर्यसहस्रस्य भवेत युगपद्युतिथा। यदि भासदृशम् सा स्यात् भासस्तस्य महात्मनः, तत्रैकस्तम् जगत्कृष्णम् प्रविभक्तम् अनेकधा। अपश्यद्देव देवस्य शरीरे पाण्डवस्तदा, ततः स विस्मयाविष्टो हृष्टरोमाधनञ्जयः। प्रणम्य शिरसा देवम् कृताञ्जलिरभाषत। अर्जुन उवाच, पश्यामि देवांस्तव देवदेहे सर्वांस्तता भूतविशेषसङ्घान्, ब्रह्माणमीशम् कमलासनस्थम् ऋषिम् च सर्वानुरगांश्च दिव्यान्। अनेकबाहूदरवक्त्रनेत्रम् पश्यामि त्वाम् सर्वतोमनन्तरूपम्, नान्तम् च मध्यम् न पुनस्तमादिम् पश्यामि विश्वेश्वर विश्वरूप। किरीटिनम् गदिनम् चक्रिणम् च तेजोराशिम् सर्वतो दीप्तिमन्तम्, पश्यामि त्वाम् दुर्निरीक्ष्यम् समन्ता दीप्तानलर्काधुतिमप्रमेयम्। त्वमक्षरम् परमम् वेदितव्यम् त्वमस्य विश्वस्य परम् निधानम्। त्वमव्ययः शाश्वत धर्मगोप्ता सनातनस्त्वम् पुरुषो मतो मे। अनादिमध्यानमनन्तवीर्यम् अनन्तबाहो सशिशूर्यनेत्रम्, पश्यामि त्वाम् दीप्तहुतासवक्त्रम् स्वतेजसा विश्वमिदम् तपन्तम्। ध्यावा पृथव्योरिदमन्तरम् हि व्याप्तम् त्वयैकेन दिशश्च सर्वाः, दृष्ट्वाद्भुतम् रूपमुग्रम् तवेदम् लोकत्रयम् प्रवेथितम् महात्मन्। अमीहि त्वाम् सुरसङ्घा विशन्ति, केचिद्भीता प्राञ्जलयोर्गृणन्ति। स्वस्तिर्युक्त्वा महर्षी सिद्धसङ्गाः स्तुवन्ति त्वाम् स्तुतिभिः पुष्कलाभिः। रुद्रादित्यवसवो यश्च साध्या विश्वेश्विनो मरुतश्चोष्मपाश्च, गन्धर्वयक्षासुरसिद्धसङ्घा विक्षन्ति ते त्वाम् विस्मिताश्चैव सर्वे रूपम् महत्ते बहुवक्त्र नेत्रम् महाबाहो बहुबाहो रूपादम् बहुदरम् बहुदंष्ट्राकरालम् दृष्ट्वा लोकः प्रवितितास्तताहम् नभःस्पृशम् दीप्तमनेकवर्णम् व्याताननम् दीप्तविशालनेत्रम् दृष्ट्वा हि त्वाम् प्रवितितन्तरात्मा धृतिम् न विन्दामि शमम् च विष्णु दंष्ट्राकरालाणि च ते मुखानि दृष्टैव कालानलसन्निभानि दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास अमी च त्वाम् धृतराष्ट्रस्य पुत्राः सर्वे सहैवान्वनिपालसङ्गैः भीष्मो द्रोणः सूतपुत्रस्तथासो सहास्मदीयैरपि योध्यमुखैः वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालाणि भयानकानि केचित् विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णतैरुत्तमाङ्गैः यथा नदीनाम् बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति तथा तवामे नरलोकवीरा विशन्ति वक्त्राण्यभिज्वलन्ति यथा प्रदीप्तम् ज्वलनम् पतङ्गा विशन्ति नाशाय समृद्धवेगाः तथैव नाशाय विशन्ति लोकाः स्तवापि वक्त्राणि समृद्धवेगाः लेलियस्य ग्रसमानः समन्ता लोकान् समग्रान् वदनैर्ज्वलद्भिः तेजोभिरापूर्य जगत्समग्रम् भासस्त्वोग्रा पतपन्ति विष्णो आख्याहिमेको भवानुग्ररूपो नमोऽस्तु ते देववरः प्रसीद विज्ञातुमिच्छामि भवन्तमाद्यम् न हि प्रजानामिव तव प्रवृत्तिम् श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ऋतेऽपि त्वाम् न भविष्यन्ति सर्वे एव स्थिता प्रत्यनिकेषु योद्धाः तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुक्ष्व राज्यम् समृद्धम् मयैवैते निहिता पूर्वमेव निमित्तमात्रम् भव सव्यसाचिन् द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथान्यानपि योद्धवीरान् मया हतस्त्वम् जहिमा व्यतिष्ठा युद्धस्वजेतासि रणे सपत्नान् सञ्जय उवाच एतत् श्रुत्वा वचनम् केशवस्य कृताञ्जलिर्वेपमानः किरीटे नमस्कृत्वा भूय एवाह कृष्णम् सगद्गतम् भीतभीत प्रणम्य अर्जुन उवाच स्थाने ऋषिकेश तवः प्रकीर्त्या जगत्प्ररिष्यत्यनुरज्यते च रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्गाः कस्माश्च तेन नमिरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकत्रे अनन्तदेवेश जगन्निवास त्वमक्षरम् सदसत्परम् यत् त्वमादिदेवः पुरुषः पुराण त्वमस्य विश्वस्य परम् निधानम् वेत्तासि वेद्यम् च परम् च धाम त्वया ततम् विश्वमनन्तरूपम् वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वम् प्रपितामहश्च नमो नमस्तेऽस्तु सहस्रकृत्वा पुनश्च भूयोऽपि नमो नमस्ते नमः पुरस्तादत पृष्टतस्ते नमोऽस्तु ते सर्वत एव सर्व अनन्तवीर्यामितविक्रमस्त्वम् सर्वम् समाप्नोति ततोऽसि सर्वाः सखेति मत्वा प्रभवम् यदुत्तम् हे कृष्ण हे यादव हे सखेति अजानता महिमानम् तवेदम् మయా ప్రమాదాత్ ప్రణయేన వాపి యశ్చావహాసార్థమసత్కృతోసి విహారశయ్యాసన భోజనేషు ఏకోతవాప్యచ్యుత తత్సమక్షం తక్షామయే త్వం అహమప్రమేయం పితాసి లోకస్య చరాచరస్య త్వమస్య పూజ్యశ్చ గురుర్గరీయాన్ నత్వం సమోస్త్యభిధికస్కుతోన్యో లోకత్రయోప్య ప్రతిమప్రభావ తస్మాత్ ప్రణమ్య ప్రణిధాయ కాయం ప్రసాదయే త్వామహమీశమీడ్యం పితేవ పుత్రస్య సఖేవ సఖ్యుః ప్రియః ప్రియాయారసిదేవ సోఢుం అదృష్టపూర్వం రిషితోస్మి దృష్ట్వా భయేన చ ప్రవితితం మనో మే తదేవ మే దర్శయ దేవ రూపం ప్రసీద దేవేశ జగన్నివాస కిరీటినం గదినం చక్రిహస్తం ఇక్షామి త్వాం దృష్టమిహం తథైవ తేనైవ రూపేణ చతుర్భుజేణ సహస్రబాహో భవ విశ్వమూర్తే శ్రీభగవానువాచ మయా ప్రసన్నేన తవార్జునేదం రూపం పరం దర్శతమాత్మయోగాత్ తేజోమయం విశ్వమనంతమాధ్యం యన్మే త్వదన్యేన చ దృష్టపూర్వం న వేదయజ్ఞాధ్యాయనేర్న దానేర్న చ క్రియాభిర్న తపోభిరుగ్రైః ఏవం రూపః శక్యమహం నిర్లోకే ద్రష్టుం త్వదన్యేన కురు ప్రవీర మాతే వ్యథామా చ విమూఢభావో దృష్ట్వా రూపం ఘోరమీదృశం మమేదం వ్యాపేతిభిప్రీతమానః పునస్త్వం తదేవ రూపమిదం ప్రపశ్య. సంజయ ఉవాచ ఇత్యార్జునం వాసుదేవస్తథోక్త్వా స్వకం రూపం దర్శయామాస భూయః ఆశ్వాసయామాస చ భీతమేనం భూత్వః పునః సౌమ్య వపుర్మహాత్మా. అర్జున ఉవాచ దృష్ట్వేదం మానుషం రూపం తవ సౌమ్యం జనార్దన ఇదానిమస్మి సంవృత్తః సచేతా ప్రకృతిం గతః. శ్రీభగవానువాచ సుదుర్దర్శమిదం రూపం దృష్టవానసి యన్మమ దేవా అప్యస్య రూపస్య నిత్యం దర్శనకాంక్షిణః నాహం వేదేర్న తపసా న దానేన న చేచ్ఛయా శక్య ఏవం విదో ద్రష్టుం దృష్టవానసి మామ్యథా భక్త్యా త్వనన్యయా శక్య అహం ఏవం విధోర్జున జాతుం ద్రష్టుం చ తత్వేన ప్రవేష్టుం చ పరంతప మత్కర్మ కృత్ మత్ పరమో మద్భక్తః సంగవర్జితః నిర్వైరః సర్వభూతేషు యః స మామేతి పాండవ. ఓం తస్సదితి శ్రీమద్భగవద్గీతాసూపనిషత్సు బ్రహ్మ విద్యాయాం యోగశాస్త్రే శ్రీకృష్ణార్జున సంవాదే విశ్వరూపదర్శన యోగో నామ ఏకాదశోధ్యాయః.